अथ प्रज्ञापारमिता नाम नवमः परिच्छेदः।
इमं परिकरं सर्वं प्रज्ञार्थं हि मुनिर्जगौ तस्मादुत्पादयेत् प्रज्ञां दुःखनिवृत्तिकाङ्क्षया। संवृतिः परमार्थश्च सत्यद्वयमिदं मतं बुद्धेरगोचरस्तत्त्वं बुद्धिः संवृतिरुच्यते। तत्र लोको द्विधा दृष्टो योगी प्राकृतकस्तथा तत्र प्राकृतको लोको योगी लोकेन बाध्यते। बाध्यन्ते धि विशेषेण योगिनोऽप्युत्तरोत्तरैः दृष्टान्तेनोभयेष्टेन कार्यार्थमविचारतः। लोकेन भावा दृश्यन्ते कल्प्यन्ते चापि तत्त्वतः न तु मायावदित्यत्र विवादो योगिलोकयोः। प्रत्यक्षमपि रूपादि प्रसिद्ध्या न प्रमाणतः अशुच्यादिषु शुच्यादि प्रसिद्धिरिव सामृषा। लोकावतरणार्थं च भावानाथेन देशितः तत्त्वतत्क्षणिका नैते संवृत्त्या चिद्विरुध्यते। न दोषो योगी संवृत्त्या लोकात्ते तत्त्वदर्शिनः अन्यथा लोकबाधा स्यात् अशुचि स्त्री निरूपणे। मायोपमाज्जिनात् पुण्यं सद्भावेऽपि कथं यथा यदि मायोपमा सत्त्वः किं पुनर्जायते मृतः। यावत्प्रत्ययसामग्री तावन्मायापि वर्तते दीर्घसन्तानमात्रेण कथं सत्त्वस्ति सत्यतः। मायापुरुषघातादौ चित्ताभावान्न पापकं चित्तमायासमेते तु पापपुण्यसमुद्भवः। मन्त्रादीनामसामर्थ्यान् न माया चित्तसम्भवः सापि नानाविधा माया नानाप्रत्ययसम्भवा। नैकस्य सर्वसामर्थ्यं प्रत्ययस्यास्ति कुत्रचित् निर्वृतः परमार्थेन संवृत्त्या यदि संसरेत्। बुद्धोऽपि संसरेदेवं ततः किं बोधिचर्यया प्रत्ययानामनुच्छेदे मायाप्युच्छिद्यते नहि। प्रत्ययानां तु विच्छेदात् संवृत्त्यापि न सम्भवः। यदा न भ्रान्तिरप्यस्ति माया केनोपलभ्यते। यदा मायैव ते नास्ति तदा किमुपलभ्यते। चित्तस्यैव स आकारो यद्यप्यन्योऽस्ति तत्त्वतः। चित्तमेव यदा माया तदा किं केन दृश्यते। उक्तं च लोकनाथेन चित्तं चित्तं न पश्यति। न छिनत्ति यथात्मानम् असिधारा तथा मनः। आत्मभावं यदा दीपः सम्प्रकाशयतीति चेत् नैव प्रकाश्यते दीपो यस्मान्न तमसावृतः। न हि स्फटिकवन्नीलं नीलत्वेन्यमपेक्षते। तथा किञ्चित् परापेक्ष मनपेक्षं च दृश्यते। अनीलत्वेन तन्नीलं नीलहेतुर्यथेक्षते। नीलमेव हि को नीलं कुर्यादात्मानमात्मना। दीपः प्रकाशत इति
ज्ञात्वा ज्ञानेन कथ्यते बुद्धि प्रकाशत इति ज्ञात्वेदं केन कथ्यते प्रकाशा वा प्रकाशा वा यदा दृष्टा न केनचित् वन्द्या दुहित्रिलीलेव कथ्यमानापि सा मुधा यदि नास्ति स्वसंवित्तिर्विज्ञानं स्मर्यते कथम् अन्यानुभूते सम्बन्धात् स्मृतिराखुविषं यथा प्रत्ययन्तरयुक्तस्य दर्शनात् स्वं प्रकाशते सिद्धाञ्जनविधिर्दृष्टो घटो नैवाञ्जनं भवेत् यथा दृष्टं श्रुतं ज्ञातं नैवेह प्रतिषिध्यते सत्यतः कल्पना त्वत्र दुःखहेतुर्निवार्यते चित्तादन्यानमायाचिन् नाप्यनन्येति कल्प्यते वस्तु चेत्सा कथं नान्या नन्याचिन्नास्ति वस्तुतः असत्यपि यथा माया दृश्याद्रष्टि तथा मनः वस्त्वाश्रयश्चेत् संसारः शून्यथाकाशवद् भवेत् वस्त्वाश्रयेणाभावस्य क्रियावत्त्वं कथं भवेत् असत्सहायमेकं हि चित्तमापद्यते तव ग्राह्यमुक्तं यदा चित्तं तदा सर्वे तथा गतः एवं च को गुणो लब्धश्चित्तमात्रेऽपि कल्पिते मायोपमत्वेऽपि ज्ञाते कथं क्लेशो निवर्तते यदा मायास्त्रियं रागस्तत्कर्तुरपि जायते अप्रहीणा हि तत्कर्तुर्गेयसङ्क्लेशवासना तद्दृष्टिकाले तस्यातो दुर्बला शून्यवासना शून्यतावासनाधानात् हीयते भाववासना किञ्चिन्नास्तीति चाभ्यासात् सापि पश्चात् प्रहीयते यदा न लभ्यते भावो यो नास्तीति प्रकल्प्यते तदा निराश्रयो भावः कथं तिष्ठेन्मतेः पुरः यदा न भावो नाभावो मतेः सन्तिष्ठते पुरः तदान्यगत्यभावेन निरालम्बा प्रशम्यति चिन्तामणिः कल्पतरुर्यथेच्छा परिपूरणः विनेयप्रणिधानाभ्यां जिनबिम्बं तथेक्षते यथा गारुडिकस्तम्भं साधयित्वा विनश्यति स तस्मिं शिरनष्टेऽपि विषादिनुपशामये बोधिचर्यानुरूप्येण जिनस्तम्भोऽपि साधितः करोति सर्वकार्याणि बोधिसत्त्वेऽपि निर्वृते अचित्तके कृता पूजा कथं फलवती भवेत् तुल्यैव पठ्यते यस्मात् तिष्ठतो निर्वृतस्य च आगमाच्च फलं तत्र संवृत्त्या तत्त्वतोऽपि वा सत्यबुद्धे कृता पूजा सफलेति कथं यथा सत्यदर्शनतो मुक्तिः शून्यतादर्शनेन किं न विनानेन मार्गेण बोधिरित्यागमो यतः नन्वसिद्धं महायानं कथं सिद्धस्त्वदागमः यस्मादुभयसिद्धोऽसौ न सिद्धोऽसौ तवादितः यत्प्रत्यया च तत्रास्था महायाने पितां कुरु अन्योभयेष्ट सत्यत्वे वेदादेरपि सत्यता सविवादं महायानम् इति चेद् आगमं त्यज तीर्थिकैः स विवादत्वात् स्वैपरैश्चागमान्तरम् शासनं भिक्षुतामूलं भिक्षुतैव च दुःस्थिता सावलंबन चित्तानां निर्वाणमपि दुस्थितम्। क्लेश प्रहाणान् मुक्तिश्चेत् तदनन्तरमस्तु सा, दृष्टं च तेषु सामर्थ्यं निःक्लेशस्यापि कर्मणः। तृष्णा तावदुपादानं नास्ति चेत् सम्प्रधार्यते, किमक्लिष्टापि तृष्णैषां नास्ति सम्मोहवत् सति। वेदना प्रत्यया तृष्णा वेदनैषां च विद्यते, सालम्बनेन चित्तेन स्थातव्यं यत्र तत्र वा। विना शून्यतया चित्तं बद्धमुत्पद्यते पुनः, यथा सङ्गिसमापत्तौ भावयेत्तेन शून्यतां। यत्सूत्रेऽवतरेद्वाक्यं तच्चिद्बुद्धोक्तमिष्यते, महायानं भवत्सूत्रैः प्रायस्तुल्यं न किं मतम्। एकेनागम्यमानेन सकलं यदि दोषवत्, एकेन सूत्रतुल्येन किं न सर्वं जिनोदितम्। महाकाश्यपमुख्यैश्च यद्वाक्यं नावगाह्यते, तत्त्वयानवबुद्धत्वात् अग्राह्यं कः करिष्यति। शक्तित्रासत्वनिर्मुक्त्या संसारे सिध्यति स्थितिः, मोहेन दुःखिनामर्थे शून्यताया इदं फलम्। तदेवं शून्यतापक्षे दूषणं नोपपद्यते, तस्मान्निर्विचिकित्सेन भावनीयैव शून्यता। क्लेशज्ञेयावृतितमः प्रतिपक्षो हि शून्यता, शीघ्रं सर्वज्ञता कामो न भावयति तां कथम्। यद्दुःखजननं वस्तु त्रासस्तस्मात् प्रजायतां, शून्यता दुःखशमनि ततः किं जायते भयम्। यतस्ततो वास्तु भयं यद्यहं नाम किञ्चन, अहमेव न किञ्चिच्चेत् भयं कस्य भविष्यति। दन्तकेशनखानाहं नास्ति नाप्यस्मि शोणितं, न सिंहाणं न च श्लेष्मा न पूयं लसिकापि वा। नाहं वसा न च स्वेदो न मेदोन्त्राणि नाप्यहं, न चाह मन्त्रनिर्गुण्डी गूथमुत्रमहं न च। नाहं मांसं न च स्नायुर्नोस्मा वायुरहं न च, न च छिद्राण्यहं नापि षड्विज्ञानानि सर्वथा। शब्दज्ञानं यदि तदा शब्दो गृह्येत सर्वदा, ज्ञेयं विना तु किं वेत्ति येन ज्ञानं निरुच्यते। अजानानं यदि ज्ञानं काष्ठं ज्ञानं प्रसज्यते, तेन सन्निहितज्ञेयं ज्ञानं नास्तीति निश्चयः। तदेव रूपं जानाति तदा किं न शृणोत्यपि, शब्दस्यासन्निधानाच्चेत् ततस्तज्ज्ञानमप्यसत्। शब्दग्रहणरूपं यत् तद्रूपग्रहणं कथम्, एकः पिता च पुत्रश्च कल्प्यते न तु तत्त्वतः। सत्त्वं रजस्तमो वापि न पुत्रो न पिता यतः, शब्दग्रहणयुक्तस्तु स्वभावस्तस्य नेक्ष्यते। तदेवान्येन रूपेण नटवत्सोऽप्यशाश्वतः, स एवान्यस्वभावश्चेत् अपूर्वेयं तदेकता। अन्यद्रूपमसत्यं चेन् निजं तद्रूपमुच्यतां, ज्ञानता चेत्ततः सर्व पुंसामैक्यं प्रसज्यते। चेतनाचेतने चैक्यं तयोर्येनास्तिता समा, विशेषश्च यदा मिथ्या कसादृश्याश्रयस्तदा अचेतनश्च नैवाह मचैतन्यात्पटादिवत् अथ ज्ञश्चेतना योगात् अज्ञो नष्टः प्रसज्यते अथ विकृत एवात्मा चैतन्येनास्य किंकृतम् अज्ञस्य निष्क्रियस्यैव माकाशस्यात्मतामता न कर्मफलसम्बन्धो युक्तश्चेदात्मना विना कर्म कृत्वा विनष्टेहि फलं कस्य भविष्यति द्वयोरप्यावयोः सिद्धे भिन्नाधारे क्रियाफले निर्व्यापारश्च तत्रात्मे त्यत्र वादो वृथा ननु हेतुमान्फलयोगीति दृश्यते नैष सम्भवः सन्तानस्यैक्यमाश्रित्य कर्ता भोक्तेति देशितम् अतीतानागतं चित्तं नाहं तद्धि न विद्यते अथोत्पन्नमहं चित्तं नष्टेऽस्मिन्नास्त्यहं पुनः यथैव कदलीस्तम्भो न कश्चिद् भागशः कृतः तथाहमप्यसद्भूतो मृग्यमाणो विचारतः यदि सत्त्वो न विद्येत कस्योपरि कृपेति चेत् कार्यार्थमभ्युपेतेन यो मोहेन प्रकल्पितः कार्यं कस्य न चेत् सत्त्वः सत्यमीहातु मोहतः दुःखव्युपशमार्थं तु कार्यमोहो न वार्यते दुःखहेतुरहङ्कार आत्ममोहात्तु वर्धते ततोऽपि न निवर्त्यश्चेत् वरं नैरात्म्यभावना कायो न पादौ न जङ्घा नोरुकायः कटिर्न च नोदरं नाप्ययं पृष्ठं नोरो बाहु न चापि सः न हस्तौ नाप्ययं पार्श्वौ न कक्षौ नाम सलक्षणः न ग्रीवा न शिरः कायः कायोत्र कतरः पुनः यदि सर्वेषु कायोयमेकदेशेन वर्तते अंशा अंशेषु वर्तन्ते स च कुत्र स्वयं स्थितः सर्वात्मना चेत् सर्वत्र स्थितः कायकरादिषु कायास्तावन्त एवाशुर्यावन्तस्ते करादयः नैवान्तर्न बहिः कायः कथं कायः करादिषु करादिभ्यः पृथग् नास्ति कथं नु खलु विद्यते तन्नास्ति कायो मोहात्तु कायबुद्धिः करादिषु सन्निवेशविशेषेण स्थाणौ पुरुषबुद्धिवत् यावत् प्रत्ययसामग्री तावत् कायः पुमानिह एवं करादौ शायावत् तावत् कायोत्र दृश्यते एवमङ्गुलिपुञ्जत्वात् पादोऽपि कतरो भवेत् सोऽपि पर्वसमूहत्वात् पर्वापि स्वांसभेदतः अंसा अप्यणुभेदेन सोऽप्यणुर्दिग्विभागतः दिग्विभागो निरंशत्वात् आकाशं तेन नास्त्यणुः एवं स्वप्नोपमे रूपे को रज्येत विचारकः कायश्चैवं यदा नास्ति तदा का स्त्री पुमांस कः यद्यस्ति दुःखं तत्त्वेन प्रहृष्टान् किं न बाधते शोकाद्यर्ताय मृष्टादि सुखं चेत् किं न रोचते बलीयसा विभूतत्वात् यदि तन्नानुभूयते वेदनात्वं कथं तस्य यस्य नानुभवात्मता अस्ति सूक्ष्मतया दुःखं स्थौल्यं तस्य हृतं ननु तुष्टिमात्रा परा चेत् स्यात् तस्मात् साप्यस्य सूक्ष्मता विरुद्धप्रत्ययोत्पत्तौ दुःखस्यानुदयो यदि कल्पनाभिनिवेशो हि वेदनित्यागतं ननु अत एव विचारोऽयं प्रतिपक्षोऽस्य भाव्यते विकल्पक्षेत्रसम्भूत ध्यानाहारा हि योगिनः शान्तरावीन्द्रियार्थौ चेत् संसर्गः कुत एतयोः निरन्तरत्वेऽप्येकत्वं कस्य केनास्तु सङ्गतिः नाडौ रणौ प्रवेशोऽस्ति निराकाशसमस्य सः अप्रवेशेन मिश्रत्वम् अमिश्रत्वेन सङ्गतिः निरंशस्य च संसर्ग कथं नामोपपद्यते संसर्गे च निरंशत्वं यदि दृष्टं निदर्शय विज्ञानस्य त्वमूर्तस्य संसर्गो नैव युज्यते समूहस्याप्यवस्तुत्वात् यथा पूर्वं विचारितम् तदेवं स्पर्शनाभावे वेदना सम्भवः कुतः किमर्थमयमायासः बाधा कस्य कुतो भवेत् यदा न वेदकः कश्चित् वेदना न च विद्यते तदावस्थामिमां दृष्ट्वा तृष्णे किं न विदीर्यसे दृश्यते स्पृश्यते चापि स्वप्नमायोपमात्मना चित्तेन सह जातत्वात् वेदना तेन नेक्ष्यते पूर्वं पश्चाच्च जातेन स्मर्यते नानुभूयते नानुभवति स्वात्मानं न चान्येनानुभूयते न चास्ति वेदक कश्चित् वेदना तो न तत्त्वतः निरात्मके कलापेऽस्मिन् क एव बाध्यते नया नेन्द्रियेषु न रूपादौ नान्तराले मनःस्थितं नाप्यन्तर्न बहिश्चित्तम् अन्यत्रापि न लभ्यते यन्न कायेन चान्यत्र न मिश्रं न पृथक् क्वचित् तन्न किञ्चिदत सत्त्वा प्रकृत्या परिनिर्वृतः ज्ञेयात् पूर्वं यदि ज्ञानं किमालम्ब्यस्य सम्भवः ज्ञेयेन सह सज्ज्ञानं किमालम्ब्यस्य सम्भवः अथ ज्ञेयात् भवेत् पश्चात् तदा ज्ञानं कुतो भवेत् एवं च सर्वधर्माणामुत्पत्तिर्नावशीयते यद्येवं संवृतिर्नास्ति ततः सत्यद्वयं कुतः अथ साप्यन्यसंवृत्त्या स्यात्सत्त्वो निर्वृतः कुतः परचित्तविकल्पोऽसौ स्वसंवृत्त्या तु नास्ति सः सपश्चान्नियतसोऽस्ति न चेन्नास्त्येव संवृतिः कल्पनाकल्पितं चेति द्वयमन्योन्यनिःसृतं यथा प्रसिद्धमाश्रित्य विचारः सर्व उच्यते विचारितेन तु यदा विचारेण विचार्यते तदा नवस्था तस्यापि विचारस्य विचारणा विचारिते विचार्ये तु विचारस्यास्ति नाश्रयः निराश्रयत्वान्नोदेति तच्च निर्वाणमुच्यते यस्य त्वेतद्वयं सत्यं स एवात्यन्तदुःस्थितः यदि ज्ञानवशादर्थो ज्ञानास्तित्वे तु का गतिः अथ ज्ञेयवशाज्ज्ञानं ज्ञेयास्तित्वे तु का गतिः अथान्योन्यवशात् सत्त्वमभावः स्याद्वयोरपि पिता चेन्न विना पुत्रात् कुतः पुत्रस्य संभवः पुत्राभावे पिता नास्ति तथा सत्त्वं तयोर्द्वयोः अंकुरो जायते बीजात् बीजं तेनैव सूच्यते गेयाज्ञानेन जातेन तत्सत्ता किं न गम्यते अंकुरादन्यतो ज्ञानात् बीजमस्तीति गम्यते ज्ञानास्तित्वं कुतो ज्ञातं गेयं यत्तेन गम्यते लोकः प्रत्यक्षतस्तावत् सर्वं हेतुमुदीक्षते पद्मनालादिभेदो हि हेतुभेदेन जायते किं कृतो हेतुभेदश्चेत् पूर्वहेतु प्रभेदतः कस्माचित् फलदो हेतु पूर्वहेतु प्रभावतः ईश्वरो जगतो हेतुः वद कस्तावदीश्वरः भूतानि चेद्भवत्येवं नाम मात्रेऽपि किं श्रमः अपि त्वनेके नित्याश्च निश्चेष्टा न च देवताः लङ्घ्यश्चाशुचयश्चैव स्मादयो न स ईश्वरः नाकाशमीशोश्चेष्टत्वात् नात्मा पूर्वनिषेधतः अचिन्त्यस्य च कर्तृत्वमप्यचिन्त्यं किमुच्यते तेन किं स्रष्टुमिष्टं च आत्मा चेन्नन्वसौ ध्रुवः स्मादिस्वभाव ईशश्च ज्ञानं गेयादनादि च कर्मण सुखदुःखे च वदः किं तेन निर्मितं हेतोरादिर्न चेदस्ति फलस्यादिः कुतो भवेत् कस्मात् सदा न कुरुते न हि शून्यमपेक्षते तेना कृतोऽन्युनास्तेव तेनासौ किमपेक्षताम् अपेक्षते चेत् सामग्रीं हेतुर्न पुनरीश्वरः न कर्तुमीश सामग्र्यां न कर्तुं तदभावतः करोत्यनिच्छन्नीशश्चेत् परायत्तः प्रसज्यते इच्छन्नपिच्छायत्तस्यात् कुर्वतः कुत ईशता एपि नित्याननूनाहुस्तेऽपि पूर्वं निवारितः सङ्ख्याप्रधानमिच्छन्ति नित्यं लोकस्य कारणं सत्त्वं रजस्तमस्येति गुणा अविषमस्थितः प्रधानमिति कथ्यन्ते विषमैर्जगदुच्यते एकस्य त्रिस्वभावत्वमयुक्तं तेन नास्ति तत् एवं गुणा न विद्यन्ते प्रत्येकं तेऽपि हि त्रिधा गुणाभावे च शब्दादे रस्तित्वमतिदूरतः अचेतने च वस्त्रादौ सुखादेरप्यसम्भवः तद्हेतुरूपाभावाश्चिन् ननुभावा विचारितः सुखाद्येव च ते हेतुः न च तस्मात् पटादयः पटादेस्तु सुखादि स्यात् तदभावात् सुखाद्य सत् सुखादीनां च नित्यत्वं कदाचिन्नोपलभ्यते सत्यमेव सुखव्यक्तौ संवित्ति किं न गृह्यते तदेव सूक्ष्मतां याति स्थूलं सूक्ष्मं च तत्कथम् स्थौल्यं त्यक्त्वा भवेत् सूक्ष्मम् अनित्ये स्थौल्यसूक्ष्मते सर्वस्य वस्तुनस्तद्वत् किं नानित्यत्वमिष्यते न स्थौल्यं चेत् सुखादन्यत् सुखस्यानित्यता स्फुटं न सदुत्पद्यते किञ्चित् असत्त्वादिति चेन्मतम् व्यक्तस्यासत उत्पत्ति रकामस्यापि ते स्थिता అన్నాదో మిథ్యభక్ష్యస్య ఫలం హేతో యది స్థితం పటర్ఘేణైవ కర్పాస బీజం క్రీత్వా నివశ్యతాం మోహాచిన్యక్ష్యతే లోకః తత్వజ్ఞస్యాపి సా స్థితిః లోకస్యాపి చ తజ్జ్ఞానం అస్తి కస్మాన్న పశ్యతి లోకా ప్రమాణతాయాం చిత్ వ్యక్తదర్శనమప్యసత్ ప్రమాణమప్రమాణం చిన్ నను తత్ప్రమితం రిషా తత్వత శూన్యత తస్మాత్ భావానం నోపపద్యతే కల్పితం భావమస్పృష్ట్వా తదభావో న గృహ్యతే తస్మాద్ భావో మృషాయో హి తస్యాభావః స్ఫుటం మృషా తస్మాత్ స్వప్నేషు తే నష్టే స నాస్తీతి వికల్పనా తద్భావకల్పనోత్పాదం బిబధ్నాతి మృషా చ సా తస్మాదేవం విచారేణ నాస్తి కించిదహేతుతః న చ వ్యస్త సమస్తేషు ప్రత్యయేషు వ్యవస్థితం అన్యతో నాపి చాయాతం న తిష్టతి న గచ్చతి మాయాతః కో విశేషస్య యన్మూఢై సత్యతః కృతం మాయయా నిర్మితం యచ్చ హేతుభిర్యచ్చ నిర్మితం ఆయాతి తత్కుతః కుత్ర యాతి చేతి నిరూప్యతాం యదన్యసన్నిధానేన దృష్టం న తదభావతః ప్రతిబింబసమేతస్మిన్ కృత్రిమే సత్యతా కథం విద్యమానస్య భావస్య హేతునా కిం ప్రయోజనం అథాప్య విద్యమానోసౌ హేతునా కిం ప్రయోజనం నాభావస్య వికారోస్తి హేతుకోటిశతైరపి తదవస్థః కథం భావః కోవాన్యో భావతాం గతః నాభావకాలే భావశ్చిత్ కదా భావో భవిష్యతి నాజాతేన హి భావేన సోభావోపగమిష్యతి న చానపగతే భావే భావావసరసంభవః భావశ్చాభావతాం నైతి ద్విస్వభావ ప్రసంగతః ఏవం చ న విరోధోస్తి న చ భావోస్తి సర్వదా అజాతమనిరుద్ధం చ తస్మాత్ సర్వమిదం జగత్ స్వప్నోపమాస్తు గతయో విచారే కదలీశమః నిర్వృతా నిర్వృతానాం చ విశేషో నాస్తి వస్తుతః ఏవం శూన్యేషు ధర్మేషు కిం లబ్ధం కిం హృతం భవేత్ సత్కృతః పరిభూతో వా కేన కః సంభవిష్యతి కుతః సుఖం దుఃఖం వాపి కిం ప్రియం వా కిమప్రియం కా తృష్ణ కుత్ర సా తృష్ణ మృగ్యమాణ స్వభావతః విచారే జీవలోకః క కో నామాత్రమరిష్యతి కో భవిష్యతి కో భూతః కో బంధు కస్య కః సుహృత్ సర్వమాకాశ సంకాశం పరిగృణ్ణంతు మద్విదః ప్రకుప్యంతి ప్రహిష్యంతి కలహోత్సవ హేతుభిః శోకాయాసైర్విషాదైశ్చ మిథశ్చేదనభేదనై యాపయంతి సుకృత్స్రేణ పాపైరాత్మసుఖేచ్ఛవః మృతా పతంత్యపాయేషు దీర్ఘతీవ్రవ్యథేషు చ ఆగత్యాగత్య సుగతిం భూత్వా భూత్వా సుఖోచితః భవే బహు ప్రపాతశ్చ తత్ర చ సత్వమీదృశం తత్రాన్యోన్య విరోధశ్చ న భవేత్ తత్వమీదృశం తత్ర చానుపమాస్తిబ్రా అనంత దుఃఖసాగరః
తత్రైవమల్పబలతా తత్రాప్యల్పత్వమాయుషః తత్రాపి జీవితారోగ్య వ్యాపారై చుత్క్లమశ్రమైః నిద్రయోపద్రవైర్బాల సంసర్గైర్నిష్ఫలైస్తథా వృథై వాయుర్బహత్యాసు వివేకస్తు సుదుర్లభః తత్రాప్యభ్యస్త విక్షేప నివారణగతిః కుతః తత్రాపి మారోయతతే మహాపాయ ప్రపాతనే తత్రా సన్మార్గ బాహుల్యాత్ విచికిత్సా చ దుర్జయా పునశ్చ క్షణ దౌర్లభ్యం బుద్ధోత్పాదోతి దుర్లభః క్లేశౌఘో దుర్నివారశ్చిత్ త్యహో దుఃఖ పరంపరా అహో బతాతి శోచ్యత్వం ఏషాం దుఃఖౌఘవర్తినాం ఏ నిక్ష్యంతే స్వదౌస్థిత్యం ఏవమప్యతి దుస్థితః స్నాత్వా స్నాత్వా యథా కశ్చిద్ విశద్ వన్యం ముహుర్ముహుః స్వసౌస్థిత్యం చ మన్యంత ఏవమప్యతి దుస్థితః అజరామరలీలానాం ఏవం విహరతాం సతాం ఆయాస్యంత్యాపదో ఘోరా కృత్వా మరణమగ్రతః ఏవం దుఃఖాగ్నితప్తానాం శాంతిం కుర్యామహం కదా పుణ్యమేఘసముద్భూతై సుఖోపకరణైష్వకైః కదోపలంబదృష్టిభ్యో దేశయిష్యామి శూన్యతాం సంవృత్యానుపలంభేన పుణ్యసంభారమాదరా సంవృత్యానుపలంభేన పుణ్యసంభారమాదరా సంవృత్యానుపలంభేన పుణ్యసంభారమాదరా ఇతి శ్రీ శాంతిదేవ విరచితే బోధిచర్యావతారే ప్రజ్ఞాపారమితా నామ నవమః పరిచ్ఛేదః ఓ